एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रस्तोत्री रत्नावली शर्मा। जसपा नाम्ना जनता समाजवादी दलेन सर्वकाराय प्रदत्तं समर्थनं प्रत्यावर्तयितुं निर्णीतमस्ति। दलस्य संसदीय दलस्य कार्यालये ह्यः उपविष्टेन उपवेशेन सर्वकाराय प्रदत्तस्य समर्थनस्य प्रत्यावर्तनाय निर्णयो विहितोऽस्तीति उपवेशानन्तरं दलेन प्रकाशितायां विज्ञप्तौ उल्लिखितमस्ति। विज्ञप्तौ सर्वकारेण सुशासनस्य प्रत्याहुतिं दापयितुं न शक्तम्, आर्थिक विकासस्य गतिं वर्धयितुं न शक्तम्, संघीयतायाः प्रभावपूर्णं क्रियान्वयनं न कृतम्, जनतायाः अपेक्षाणां सम्बोधनं विधातुं न शक्तमिति च कारणेन समर्थनं प्रत्यावर्त्य विपक्षे स्थातुं निर्णीतमस्तीति उल्लिखितं वर्तते। नवीनस्य आर्थिक वर्षस्य प्रारम्भात् पूर्वमेव सर्वैः विश्वविद्यालयैः आगामिनः आर्थिक वर्षस्य कृते आयव्ययकं कार्यक्रमाश्च पारिति कृतः सन्ति। विश्वविद्यालयानाम् आर्थिक स्वच्छतायाः, वर्तमानार्थिकाधिनियम सम्बद्धायाः व्यवस्थायाः आनुकूल्येन च सर्वैः विश्वविद्यालयैः स्वास्थ्य विज्ञान प्रतिष्ठानैश्च प्रथमवारं आर्थिक वर्षस्य अन्ते आयव्ययकं कार्यक्रमाश्च पारिति कृतः सन्ति। विगतवर्षे नवीनस्य आर्थिक वर्षस्य आरम्भेऽपि विश्वविद्यालयानाम् आन्तरिकैः कारणैः यथासमयं सभायाः आयोजनस्य अभावेन आयव्ययकं नीति कार्यक्रमाश्च यथासमयं पारिति भवितुं न शक्नुवन्ति स्म। अत्रान्तरे नेपाल संस्कृत विश्वविद्यालय सभायाः अष्टसप्ततितमेन उपवेशेन आगामिनः आर्थिक वर्षस्य कृते एकाब्जस्य एकत्रिंशतो कोटिनां च रूप्यकाणाम् आयव्ययकं कार्यक्रमाश्च स्वीकृताः सन्ति। बालुवाटारवर्तिनी प्रधानमन्त्री निवासे प्रधानमन्त्रिणः विश्वविद्यालयस्य कुलपतेश्च केपी शर्मा ओलिनः अध्यक्षतायाम् उपविष्टे उपवेशे विश्वविद्यालयस्य कुलसचिवेन प्राध्यापकेन माधव अधिकारिणा प्रस्तुतं भौतिक विकास सम्बद्धान् कार्यक्रमान् लक्ष्यं च आधृत्य आयव्ययकं पारिति कृतमस्ति। उपवेशे प्रधानमन्त्री विश्वविद्यालयस्य कुलपतिश्च केपी शर्मा ओली संस्कृत वाङ्मयस्य संरक्षणेन प्रवर्धनेन च सहैव गुणस्तरीयां शिक्षां प्रदातुं विश्वविद्यालयस्य विशेषं दायित्वमस्तीति प्रावोचत्। एवमेव बालुवाटारवर्तिनी प्रधानमन्त्री निवासे प्रधानमन्त्रिणः अध्यक्षतायां ह्यः उपविष्टेन लुम्बिनी बौद्ध विश्वविद्यालय सभायाः अष्टादशतमेन उपवेशेन आगामिनः आर्थिक वर्षस्य कृते एकोनपञ्चाशतः कोटिनाम् एकोनषष्टिर्लक्षाणां च रूप्यकाणाम् आयव्ययकं स्वीकृतमस्ति। राष्ट्रपतिः रामचन्द्र पौडेलः निगदति संसदा अत्यावश्यकाधिनियमानां विधीनां च निर्माणकार्ये विलम्बने विहिते सति राष्ट्रियाकांक्षायाः प्राप्तौ अवरोधो भवति। संसदीय विषय पत्रकार समाजेन ह्य आबद्धै पत्रकारैस्सह मेलनावसरे राष्ट्रपतिः पौडेलः संसदीय कार्यविहीनावस्थायाः सम्भावनां निवार्य आवश्यक विमर्शनं सहमतिं सहकार्यं च कृत्वा संसदीय गतिविधिन् अतिरिक्तं जनमुखान् जनतायाः विश्वसनीयान् च विधातुं बलं प्रादात्। राष्ट्रपतिः पौडेलः नेपाले प्रजातान्त्रिकाभ्यासः न्यूनोऽस्तीति चर्चयन् लोकतान्त्रिक पद्धतिरेव उत्तम व्यवस्था अस्तीति उदैरयत्। सर्वकारेण श्रावणमासः डेंगूरोगस्य सञ्चेतनारूपेण उद्घुष्टोऽस्ति। ह्य काष्ठमण्डपे आयोजिते कार्यक्रमे श्रावणमासं डेंगूरोगस्य सञ्चेतनारूपेण उद्घोषयन् स्वास्थ्य जनसंख्यामन्त्री प्रदीप पौडेलः श्रावणमासस्य प्रारम्भादेव सञ्चेतनायाः प्रसारणाय डेंगू सञ्चेतनायाः मासस्य रूपेण घोषणा विहिता अस्तीति प्रावोचत्। मन्त्री पौडेलः श्रावणमासात् कार्तिकमासं यावत् डेंगूरोगस्य संकटं भवतीत्यतः प्रत्येकं शुक्रवासरे प्रातः दशवादने मशकः अन्विष्यन्तां विनाश्यन्तां चेति अभियानं प्रारभ्यते इति अगदत्। मन्त्री पौडेलः न केवलं सर्वकारस्य प्रयत्नेन डेंगूरोगस्य संक्रमणं न्यूनीकर्तुं शक्यते अपितु नैजक्षेत्राणां समुदायस्य च सर्वेषां सहयोगस्य समन्वयस्य च आवश्यकता भवति इति प्रावोचत्। तदवसरे विश्वस्वास्थ्य संघटनस्य नेपालदेशीय प्रमुखः डा राजेश पाण्डवः संक्रामक रोग नियन्त्रण महाशाखायाः निर्देशक डाक्टर चन्द्रभाल झा च डेंगू नियन्त्रणाय सर्वेषां सहयोगस्य आवश्यकता वर्तते इति उक्तवन्तौ। सर्वकारेण प्रत्येकं वर्षे श्रावण मासस्य षोडशे दिवसे राष्ट्रिय कोद्रवान्न दिवसत्वेन आयोजयितुं निर्णीतमस्ति। मन्त्री परिषद निर्णयान् सार्वजनिकर्तुं ह्य संचार सूचना प्रविधि मन्त्रालये आयोजिते पत्रकार सम्मेलने संचार सूचना प्रविधि मन्त्री सर्वकारस्य प्रवक्ता च पृथ्वी सुब्बा गुरूङ मन्त्री परिषद उपवेशेन नेपाले ऊनविंशत्युत्तर द्विसहस्रतमे ख्रैष्टाब्दे जापान सर्वकारेण सह शिल्पयुतान् श्रमिकान् प्रेषयितुं विहितस्य सन्धिपत्रस्य अवधिं पञ्चवर्षाणां कृते नवीकर्तुं स्वीकृतिः प्रदत्ता अस्ति इति अगतत्। एवमेव मन्त्रिपरिषदः उपवेशेन गतार्थिक वर्षस्य कृते इक्षुत्पादक कृषकेभ्य प्रदेयम् अनुदान वित्तं प्रति क्विंटल परिमितं पञ्चत्रिंशद् रूप्यकाणि निर्धारितानि सन्ति। मन्त्रिपरिषद उपवेशेन नागडुंगा मार्गखण्डस्य विस्ताराय जापान सर्वकारात् प्राप्तव्यानां पञ्चाब्जानां सप्ततेः कोटीनां च जापान देशीय मुद्राणां सौविध्यपूर्णं ऋणं स्वीकर्तुं निर्णीतमस्ति इति च मन्त्री गुरूङ असूचयत्। मन्त्रिपरिषद उपवेशेन नेपाल सुरक्षण प्राधिकरणस्य अध्यक्षस्य शरद ओझा इत्यस्य अनुसन्धानाय उच्चन्यायालयस्य पूर्व न्यायाधीशस्य कृष्णगिरि इत्यस्य संयोजकत्वे त्रिसदस्यात्मिका अनुसन्धान समितिः संघटिता अस्ति। अद्य आराष्ट्रं श्रावण संक्रान्ति पर्व समायोज्यते। सौरमानानुसारेण सूर्यो दक्षिणायनं यत्य कर्कट रेखायाः उपरि प्राप्तोऽस्ति प्राप्नोतीति हेतोः दिवसोऽयं कर्कट संक्रान्ति नाम्नापि प्रथितो विद्यते। कृषि प्रधान देशे नेपाले आषाढमासे विहितेन कृषि कर्मणा श्रान्त कृषकैः पंकजातं प्रक्षाल्य स्वकीयै बन्धुभिः मित्रैस्सह प्रमोदावहे वातावरणे अद्य भोजनं भुज्यते। आषाढमासस्य पंकस्य कारणेन सम्भाव्यात् रोगाद् रक्षितुं चर्मरुजो निराकरणस्य च उद्देश्येन पर्वेदम् आयोज्यमानं वर्तते इति लोके विश्वासोऽस्ति। अद्य निम्बजम्बोदर दाडिम प्रभृतिकानि फलानि समर्प्य कण्डारक नामकस्य रक्षसः पूजनात् चर्मरोगस्य प्रकोपात् मुक्तिः प्राप्यते इति विचार्य विविधं वनस्पतिजातं प्रज्वाल्य प्रतिगृहं चतस्रिषु दिक्षु उन्मुखमाध्यमात् चर्मरोग प्रक्षेपण प्रचलनं वर्तते। राष्ट्रपतेः रामचन्द्र पौडेलस्य समक्षं नवनियुक्तः संघीय विषय सामान्य प्रशासन मन्त्री भगवती नेउपाने ह्य पदगोपनीयतयोः शपथं गृहीतवती। राष्ट्रपतिना पौडेलेन प्रधानमन्त्रिणः केपी शर्मा ओलिनः संस्तुतौ राष्ट्रसभा सदस्यः नेउपाने गतमंगलवासरे संघीय विषय सामान्य प्रशासन मन्त्रीपदे नियुक्तासीत्। नवनियुक्त मन्त्री नेउपाने ह्य सायं सिंहप्रासादवर्तिनी मन्त्रालयं सम्प्राप्य पदभारं गृहीतवती अस्ति। काष्ठमण्डप महानगरपालिकया आगामिनः आर्थिक वर्षस्य कृते गत रविवासरे प्रस्तावितस्य पञ्चविंशतेः अब्जानां षट्सप्ततेः कोटीनां त्रिचत्वारिंशतो लक्ष्याणाम् एकचत्वारिंशत सहस्राणां च रूप्यकाणाम् आयव्ययकं ह्य नगरसभायाः उपवेशेन पारिति कृतमस्ति। काष्ठमण्डप महानगरपालिकायाः प्रमुखस्य बालेन्द्र शाहस्य अध्यक्षतायाम् उपविष्टेन नगरसभायाः सप्तदशतमस्य अधिवेशनस्य द्वितीयोपवेशेन आयव्ययकम् पारित कृतमस्ति। महानगरपालिकया पूर्वाधारक्षेत्रे एकपञ्चाशत् प्रतिशतं सामाजिक विकास पक्षे विंशति प्रतिशतं कार्य संचालन पक्षे प्रशासनिक पक्षे च चतुर्दश प्रतिशतं सुशासनान्तर सम्बद्ध क्षेत्रे द्वादश प्रतिशतं आर्थिक विकासस्य पक्षे च त्रिप्रतिशतं आयव्ययकं विनियोजितमस्ति। मुगलिना पोखरा मार्गखण्डस्य अन्तर्गते तनहु जनपदस्य दमौली स्थाने मादि नद्यां निर्मीयमाणस्य सेतोः निर्माण कार्यम् अन्तिमचरणे प्राप्तमस्ति। व्यास नगरपालिकायाः चतुर्थ पञ्चमवडा क्षेत्रयोः योजकस्य मादि नद्यां निर्मीयमाणस्य सेतो निर्माण कार्यम् अधुनावधि प्रतिशतम् एकसप्तत्या सम्पन्नमस्ति इति मुगलिना पोखरा मार्गायोजनायाः पूर्वखण्डस्य स्थपति विष्णुप्रसाद पाण्डे असूचयत्।